इयं आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य मॉरिशस देशस्य राष्ट्रिय दिवस समारोहे मुख्यातिथिः भविष्यति। ह्यः श्रीमोदी पोर्ट लुईस इत्याख्ये स्थले स्वकीयेन सहकक्षेण नवीन चन्द्र रामगुलाम इत्येतेन सह उपयोगिनीं सकारात्मिकीं चर्चां समाचरितवान्। अपि च उभयोः देशयोः मध्ये सहभागितायाः पुष्टिम् अपि कृतवान्। उभौ नेतारौ द्विपक्षीय सम्बन्धानां वर्तमान सहयोगस्य चापि समीक्षां विहितवन्तौ। उपवेशनावधौ रक्षा सुरक्षार्थिक सांस्कृतिक सम्बन्धेषु विचाराणाम् आदान प्रदानमपि जातम्। प्रधानमन्त्रिणा निगदितं यत् भारतस्य समीपे एकः विश्वासयुतः मॉरिशस देशः अस्तीति, तथा च भारत मॉरिशस देशौ ग्लोबल साउथ इत्येतस्य वैश्विक दक्षिणस्य कल्याणपन्थानः संवर्धयितुं कार्यं करिष्यतः। तदनु मॉरिशस देशस्य प्रधानमन्त्रिद्वारा आयोजिते भोजनावधौ स्वकीये सम्बोधने श्रीमोदी अवोचत् यत् भारत मॉरिशस देशयोर्मध्ये सम्बन्धः न केवलं परम्परागतो वर्तते, अपितु भविष्यकाले उभौ देशौ आधारभूतावसंरचनायुतासु परियोजनास्वपि कार्यं करिष्यतः। प्रधानमन्त्रिणा अग्रे प्रतिपादितं यत् आगामीषु दिवसेषु भारत मॉरिशस देशौ स्वजनानां विकासाय समग्रक्षेत्रस्य शान्तये सुरक्षायै च मिलित्वा सहकार्यं सम्पादयिष्यतः। इतः पूर्वं प्रधानमन्त्री नरेन्द्रमोदी ह्यः रात्रौ पोर्ट लुईस इत्यत्र भारतीय प्रवासिनः सम्बोधयन् उक्तवान् यत् मॉरिशस देशः भारत वैश्विक दक्षिणयोः मध्ये एकः सेतुः वर्तते, अपि च भारतस्य सागर लक्ष्यस्य केन्द्रत्वेनापि गण्यते। प्रधानमन्त्री पुनः प्रत्यपादयत् यत् मॉरिशस देशः न केवलं सहभागी देशो वर्तते, अपितु भारतस्य कुटुम्बस्य भागोऽपि विद्यते। अयं सम्बन्धः इतिवृत्ते परम्परायां मानवात्मनि च गहनः दृढश्चास्तीति उक्तवान् प्रधानमन्त्री। राष्ट्रपति पदासीना द्रौपदी मुर्मुः पंजाब प्रशासनेन मोहाली नगरे आयोजिते नागरिकाभिनन्दन समारोहे ह्यः सहभागं कृतवती। अद्य राष्ट्रपतिः चण्डीगढे पंजाब विश्वविद्यालयस्य द्विसप्ततितमं दीक्षान्त समारोहं सम्बोधयिष्यति। लोकसभया ह्यः 25-24-2000 वर्षयोः कृते द्वितीय संभागस्य अनुपूरकानुदानाभ्यर्थनेभ्यः, 22-21-2000 वर्षयोः कृते अतिरिक्तानुदानाभ्यर्थनाय अस्य वित्तीयवर्षस्य मणिपुरस्य अर्थसंकल्पपत्राय तथा च गतवर्षस्य मणिपुरस्य अनुपूरकानुभ्यर्थनेभ्यः स्वीकृतिः प्रदत्ता। सभायां चर्चायाः प्रत्युत्तरे वित्तमन्त्री निर्मला सीतारामन इत्येषा अवदत् यत् मणिपुरराज्यस्य अर्थव्यवस्थां द्रुतगत्या पुनः प्राप्तुं समर्थयितुं च केन्द्रं सर्वं वित्तीय साहाय्यं प्रददाति। राज्ये कदापि एतादृशः निधिः न आसीत् इति कथयित्वा सा मणिपुरस्य कृते 500 कोटि रूप्यकाणां कोषस्य घोषणाम् अपि कृतवती। अमेरिकादेशेन निगदितं यत् युक्रेनदेशेन तात्कालिक प्रभावरीत्या अमेरिकादेशेन सह सैन्यवार्तायाः तस्य प्रस्तावे सहमतिः प्रकटिता। अमेरिकादेशेन 30 दिवसानां कृते अल्पसमयस्य युद्धविरामस्य घोषणा कृतास्ति। सम्प्रति च रूसदेशे निर्भरो वर्तते यत् असौ देशः अस्मिन् विषये प्रतिक्रियां दास्यति उत वा न प्रदास्यति। विमेन्स प्रीमियर लीग इत्येतस्यां क्रिकेट मालिकायां गतरात्रौ मुम्बई नगर्याः बारबॉन क्रिकेट क्रीडांगणे रॉयल चैलेंजर्स बैंगलुरू दलेन मुम्बई इंडियंस इत्येतत् दलं 11 धावनांकैः पराजितम्। रॉयल चैलेंजर्स बैंगलुरू इत्येतेन मुम्बई इंडियंस इत्येतस्मै दलाय 200 धावनांकानां लक्ष्यं स्थापितम् इति वार्ताः।